All attendees are in listen-only mode.
നമാംസി വാക്യകാരം പരവചിം ഭാഷ്യകാരം പതഞ്ജലിം പാണിനിം സൂത്രകാരം ച പ്രണതോസ്മി മുനിത്രയം. तत्र गतपाठे पुस्तकस्य विषये उक्तमासीत्, तद्विषये पुस्तकस्य क्रयणविषये बहूनां प्रश्नाः आसन्, तस्य डीटेल्स् अद्य वेब्सैट् मध्ये स्थाप्यते, अनौन्स्मेण्ट् सेक्शन् मध्ये स्थाप्यते. अतः येषां तत् पुस्तकक्रयणविषये आसक्तिः अस्ति ते तत् डीटेल्स् उपयुज्य क्रेतुं शक्नुवन्ति. तत्र ईमेल् सङ्केतः, पुनः मोबैल् सङ्केतः, अकौण्ट् डीटेल्स् सर्वमपि अद्य योज्यते अनौन्स्मेण्ट् सेक्शन् मध्ये. मेल् अपि प्रेषयामः. ये क्रेतुमिच्छन्ति ते तत्र सम्पर्कं कृत्वा यदि धनं संस्थापयन्ति तदा तस्य प्रेषणव्यवस्था कर्तुं शक्यते. विदेशेषु ये सन्ति तेभ्यः अपि प्रेषयितुं शक्यते, किन्तु प्रायः तत्र पोस्टल् चार्ज् अधिकं भवेत्. यदि अमेरिकादेशे सन्ति तर्हि संस्कृतभारतीद्वारा व्यवस्था कर्तुं शक्यते. ते अपि यदि मत्कृते मेल् कुर्वन्ति, मम मेल् ऐ डि प्रति यदि मेल् प्रेषयन्ति अमेरिका मध्ये ये सन्ति, तदा तेभ्यः तत्रत्य सङ्केतं सम्पर्कसङ्ख्यां सूचयामि, ते तत्र सम्पर्कं कर्तुं शक्नुवन्ति. अन्यत् किमपि वक्तव्यं वा सौम्या?
हरि ओम्.
हरि ओम्.
अन्यत् किमपि नास्ति, भवान् अनुवर्तयत्.
गतपाठे प्राक्कथनरूपेण केचन विषयाः उक्ताः, तस्य एव अनुवर्तनं करोमि. अष्टाध्याय्यां किम् अस्ति, अष्टाध्याय्याः स्वरूपं किम् इति वक्तुम् आरब्धं, किन्तु ततः प्राक् कथं धातुभ्यः प्रत्ययाः विधीयन्ते, कतिविध प्रत्ययाः सन्ति, तत्र काः प्रकृतयः वर्तन्ते, कथं लक्षशः रूपाणि प्रकृतिप्रत्ययानां संयोगेन भवितुमर्हति इति निरूपितम्. तद्विषये एव किञ्चित् विस्तरेण अस्मिन् पाठे अपि वदामि. सप्तविधप्रत्ययाः उक्ताः इति पूर्वं निरूपितम्. सनादिप्रत्ययाः, विकरणप्रत्ययाः, कृत्प्रत्ययाः, तिङ्प्रत्ययाः, सुप्प्रत्ययाः, स्त्रीप्रत्ययाः, तद्धितप्रत्ययाः इति. किन्तु एते सर्वे अपि प्रत्ययाः साक्षात् धातोः एव न भवन्ति. एते सर्वेऽपि प्रत्ययाः साक्षात् धातोः एव न भवन्ति. केचन साक्षात् धातोः भवन्ति, केचन धातोः प्रत्ययान्तरे योजिते, अन्यस्मिन् प्रत्यये योजिते यत् रूपं तस्मात् भवन्ति. अर्थात् विविधस्तरे एते प्रत्ययाः भवन्ति, साक्षात् धातोः एव एते प्रत्ययाः न भवन्ति. तर्हि कस्मिन् कस्मिन् स्तरे कः प्रत्ययः भवति, कथं प्रत्यययोजनम् अस्मिन् व्याकरणशास्त्रे क्रियते इति चेत्, धातुः सर्वेषामपि पदानां मूलप्रकृतिरस्ति. ධාතෝ කේතන සනාදි ප්‍රත්‍යයාහ භවಂತಿ සනාදි ප්‍රත්‍යයාහ ద్వాదశ වර්තන්තේ කේතන සනාදි ප්‍රත්‍යයාහ සාක්ෂාත් ධාතෝ ඒව භවಂತಿ සනාදි ප්‍රත්‍යයේ යෝජිතේ යත රූපම් తత్ రూపం పునః ధాతుః ఇత్యేవ కథ్యతే ఏవంచ ధాతుః ద్విధః ఏకః ఉపదిష్టః ధాతుః యః ధాతుపాఠే దృశ్యతే సః ఏకవిధః ధాతుః యథా భవతి ఇత్యస్య భూ ఇతి కశ్చన ధాతుః అయం ధాతుః పాణినీయ ధాతు పాఠ పుస్తకే దృశ్యతే ఏం ఏతాదృశాః ధాతవః ఉపద్విసహస్ర ధాతవః వర్తంతే ఏతే సర్వేపి సాక్షాత్ ఉపదిష్టాః ధాతవః ఇదానీం మయా ఉక్తం సనాది ప్రత్యయానాం యోజనే కృతే అపి యత్ రూపం లభ్యతే తదపి ధాతుః ఇత్యేవ వ్యవహ్రియతే ఇతి అయం ధాతుః సాక్షాత్ ఉపదిష్టః న కింతు అయం ధాతుః కస్యచన ప్రత్యయస్య యోజనేన నిర్మితః సో దిస్ ఈజ్ అ జనరేటెడ్ ధాతు ఇట్స్ నాట్ ఒరిజినల్ ధాతు ఒరిజినల్ ధాతు సారి ధాతు పాఠ బట్ దిస్ ధాతు ఇస్ జనరేటెడ్ బై యాడింగ్ అ ప్రత్యయ ఏతాదృశాః ధాతవః ఆతిదేశికాః ధాతవః ఇతి వ్యాకరణే వ్యవహ్రియంతే ఏతాదృశాః ధాతవః ఆతిదేశికాః ధాతవః దిస్ ధాతుస్ ఆర్ కాల్డ్ ఆతిదేశిక ధాతుస్ ద ధాతుస్ విచ్ ఆర్ ఇన్ ధాతు పాఠ దే ఆర్ కాల్డ్ ఔపదేశిక ధాతుస్ అండ్ ద ధాతుస్ విచ్ ఆర్ జనరేటెడ్ దే ఆర్ కాల్డ్ ఆతిదేశిక ధాతుస్ సో టూ టైప్స్ ఆఫ్ ధాతుస్ ఆర్ దేర్ ఏతస్య విషయ విస్తరేణ పునః అహం వదిష్యామి యదహం ఇదానీం వదన్ అస్మి తత్ సంపూర్ణతయా వ్యాకరణ శాస్త్రస్య అవగమనార్థమేవ సర్వస్యాపి వివరణం పునః కరిష్యామి అతః యది ఇదానీం స్పష్టతయా న జ్ఞాయతే తర్హి చింతా మాస్తు పునః తస్య వివరణం అగ్రే భవత్యేవ ధాతుభ్యః ధాతోః తింగ్ ప్రత్యయాః భవంతి యథా కృ ఇతి ధాతో ధాతుః తస్మాత్ తింగ్ ప్రత్యయ కృతే కరోతి ఇతి రూపం సిద్ధ్యతి ధాతోః తింగ్ ప్రత్యయే కృతే యత్ రూపం లభ్యతే తత్ రూపం తింగంతం ఇతి వ్యవహ్రియతే తింగంతమేవ పదం ఇత్యపి కథ్యతే కృత్ ప్రత్యయాః అపి ధాతోః ఏవ భవంతి కృత్ ప్రత్యయాః అపి ధాతోః ఏవ భవంతి కింతు కృత్ ప్రత్యయే యోజితే యత్ రూపం లభ్యతే తద్ రూపం ప్రాతిపదికం ఇది వ్యవహ్రియతే ప్రాతిపదికం ఇది కాచిత్ సంజ్ఞ వ్యాకరణ శాస్త్రే ఇస్ ఎ టెక్నికల్ టర్మ్ ప్రాతిపదికం కృత్ ప్రత్యయ యోజితే ద ఫార్మ్ విచ్ వి గెట్ బై యాడింగ్ కృత్ సో ఏవంచ ధాతోః సనాది ప్రత్యయాః భవంతి తింగ్ ప్రత్యయాః భవంతి కృత్ ప్రత్యయాః భవంతి వికరణ ప్రత్యయాః అపి ధాతోః ఏవ భవంతి కింతు తే ధాతు తింగ్ ప్రత్యయోః మధ్యే అథవా ధాతు కృత్ ప్రత్యయోః మధ్యే భవంతి స్వతంత్రతయా తేషాం తత్ర ఉపయోగః నాస్తి తింగ్ ప్రత్యయాత్ పూర్వం భవతి అథవా కృత్ ప్రత్యయాత్ పూర్వం భవతి ఏవం వికరణ ప్రత్యయానాం ఉపయోగః ఏవంచ చతుర్విధ ప్రత్యయాః ధాతోః భవంతి కృత్ ప్రత్యయాః తింగ్ ప్రత్యయాః సనాది ప్రత్యయాః వికరణ ప్రత్యయాః అపి ధాతోః ఏవ భవంతి అస్మిన్ చిత్రే నాస్తి సో దీస్ ప్రత్యయాస్ ఆర్ యాడెడ్ టు ధాతు కృత్ ప్రత్యయ తింగ్ ప్రత్యయ సనాది ప్రత్యయాస్ అండ్ ఈవెన్ వికరణ ప్రత్యయాస్ ఆర్ ఆల్సో యాడెడ్ టు ధాతు బట్ దే ఆర్ యాడెడ్ బిఫోర్ థింగ్ ఆర్ బిఫోర్ కృత్ సో ఇన్ బిట్వీన్ ధాతు అండ్ థింగ్ వికరణ ఇస్ యాడెడ్ ఆర్ ఇన్ బిట్వీన్ ధాతు అండ్ కృత్ వికరణ ప్రత్యయ ఇస్ యాడెడ్ కేచన సనాది ప్రత్యయాః ప్రాతిపదికాత్ భవంతి సమ్ సనాది ప్రత్యయస్ కెన్ బి యాడెడ్ టు ప్రాతిపదిక సనాది ప్రత్యయానాం యోజనే కృతే యత్ రూపం లభ్యతే తత్ రూపం पुनः धातुः इत्येव कथ्यते. एते सर्वेपि औपदेशिकधातवः न किन्तु आतिदेशिकधातवः. जनरेटेड् धातु दिस् धातु सार् धातोः प्रातिपदिकात् सुप्रत्ययाः भवन्ति. प्रातिपदिकात् सुप्रत्यये योजिते यद्रूपं तद्रूपं सुबन्तम् इति व्यवह्रियते. सुबन्तम् अपि पदम्. एवञ्च पदं द्विविधं सुबन्तं तिङन्तम् इति. सुप्रत्ययान्तं सुबन्तं तिङ्प्रत्ययान्तं तिङन्तम्. प्रातिपदिकात् स्त्रीप्रत्ययाः अपि भवन्ति. स्त्रीत्वं द्योतयितुं स्त्रीप्रत्ययाः क्रियन्ते. उदाहरणार्थं बालकः इत्यस्ति पुल्लिङ्गे रूपं, बालिका इति स्त्रीलिङ्गे रूपम्. कथं बालिका इति रूपं निष्पन्नम् इति चेत् कश्चन प्रत्ययः योजितः स्त्रीत्वद्योतनार्थम्, अतः बालिका इति रूपं लब्धम्. एतादृशप्रत्ययाः स्त्रीप्रत्ययाः इति कथ्यन्ते. द प्रत्ययास् विच् आर् एडेड् टु डिनोट् स्त्रीत्व, दोस् प्रत्ययास् आर् काल्ड् स्त्रीप्रत्ययास्. प्रातिपदिकात् स्त्रीप्रत्ययाः भवन्ति. स्त्रीप्रत्यये योजिते यत् रूपं तदपि प्रातिपदिकमेव. पुनः तादृशात् स्त्रीप्रत्यययुक्तात् प्रातिपदिकात् अपि सुप्रत्ययाः क्रियन्ते. पुनः सुबन्तं रूपं लभ्यते. एवञ्च सुबन्तं तिङन्तञ्च अन्तिमं, यः कश्चन प्रत्ययः भवतु अन्ते सुप्रत्ययः तिङ्प्रत्ययः वा भवति. यतः सुबन्तं तिङन्तञ्च पदं. सुबन् द वर्ड् एण्डिङ्ग् वित् सुप् आर् तिङ् इस् काल्ड् पद. वर्ड् इट्सेल्फ् वर्ड् मीन्स् हियर् इस् पद. पद मीन्स् सुबन्त अण्ड् तिङन्त एण्डिङ्ग् वित् सुप्रत्यय आर् एण्डिङ्ग् वित् तिङ्प्रत्यय. So each pada, every pada should end with either with sup or with ting. Pratipadikat iti puram buktam sanadi pratyaya bhavanti iti. Ataha stri pratyaya sahita adapi pratipadikat sanadi pratyaya kartum shakyante. Subanta paryanta muktam. Subantat केचन सनादिप्रत्ययाः सुबन्तादपि भवन्ति. एवञ्च सनादिप्रत्ययानाम् अयं विशेषः, केचन सनादिप्रत्ययाः धातोः भवन्ति, केचन प्रातिपदिकात् भवन्ति, केचन सनादिप्रत्ययाः सुबन्तात् भवन्ति. यदा सनादिप्रत्ययः क्रियते तदा यद्रूपं लभ्यते तत् पुनः धातुः एव भवति. सुबन्तात् तद्धितप्रत्ययाः भवन्ति. सुबन्तात् तद्धितप्रत्यये कृते यत् रूपं लभ्यते तदपि रूपं प्रातिपदिकम् इत्येव कथ्यते. सुबन्तात् तद्धितप्रत्यये कृते यत् रूपं तत् प्रातिपदिकम् इत्येव कथ्यते. पुनः प्रातिपदिकात् सुप्रत्ययाः भवन्ति सुबन्तं रूपम्. प्रातिपदिकात् स्त्रीप्रत्ययाः अपि कर्तुं शक्यन्ते. स्त्रीप्रत्ययकते यद्रूपं लभ्यते तदपि प्रातिपदिकमेव, अतः पुनः सुप्रत्ययाः भवन्ति. एवम् अन्ते सुप्रत्ययः क्रियन्ते. एवं ये सप्तविधप्रत्ययाः पूर्वम् उक्ताः ते एवं विविधस्तरे भवन्ति. सर्वेपि धातोः न भवन्ति, किन्तु विविधस्तरे केचन धातोः भवन्ति, केचन प्रातिपदिकात् भवन्ति, केचन सुबन्तात् भवन्ति. अतः मया उक्तं पूर्वं त्रिविधा प्रकृतिः इति. यस्मात् प्रत्ययः क्रियते सा प्रकृतिः. प्रकृतिः प्राधान्येन त्रिविधा इति मया उक्तम्. किमर्थम् उक्तं नाम इदमेव कारणं. केचन प्रत्ययाः धातोः भवन्ति अतः धातुः प्रकृतिः, केचन प्रत्ययाः प्रातिपदिकात् भवन्ति अतः प्रातिपदिकं प्रकृतिः, केचन सुबन्तात् भवन्ति अतः सुबन्तं प्रकृतिः. अतः तिस्रः प्रकृतयः इति मया उक्तम्। एवं सप्तविध प्रत्ययाः, एवं यत् पूर्वं दर्शितं तदेव केवलम् एकस्मिन् चित्रे वर्तते। एवं सप्तविध प्रत्ययाः, तिस्रः प्रकृतयः, धातुः केचन धातोः भवन्ति, केचन प्रातिपदिकात् भवन्ति, केचन प्रत्ययाः सुबन्तात् भवन्ति। एवं रूपेण प्रत्ययाः प्रकृतिभ्यः योज्यन्ते। एवं प्रकृतिप्रत्ययोः संयोगेन लक्षशः रूपाणि अस्मिन् शास्त्रे सिद्ध्यन्ति। तर्हि कथं प्रकृतेः प्रत्ययः योजनीयः? धातुः प्रकृतिः, कथं कृत्प्रत्ययः योजनीयः? कृत्प्रत्यययोजनकाले का व्यवस्था? अथवा कथं तिङ्प्रत्ययः योजनीयः? कथं सनादिप्रत्ययः योजनीयः? इत्येव व्याकरणशास्त्रस्य प्रधानः विषयः भवति। एते प्रत्ययाः कथं प्रकृतिभ्यः योजनीयाः इत्येव प्राधान्येन अष्टाध्याय्यां निरूपितमस्ति। अतः पुनः एतद्विषये विस्तरेण अग्रे पठामः। अतः यदि इदं न अवगम्यते तर्हि अपि चिन्ता मास्तु, पुनः विस्तरेण एतद्विषये पश्यामः, ततः परम् इदं सम्यक् अवगम्यते। अस्तु, एतद्विषये प्रश्नः अस्ति वा? प्रश्न सविताजी, सविताजी प्रश्नः अस्ति वा?
केचन लिखिताः प्रश्नाः सन्ति, तद्दृष्ट्वा सापि लिखित्वा प्रेषितवती।
एवं चिन्तते,
चिकीर्ष इत्युक्ते किं?
चिकीर्ष इति धातोः सनादिप्रत्यये कृते यत् रूपं लब्धं तत् चिकीर्ष इति। कृ इति कश्चन धातुः, मया उदाहरणं लिखितं, कृ इति कश्चन धातुः, तस्मात् सनादिप्रत्ययेषु तत्र सन् इति एकः प्रत्ययः, सन् आदिप्रत्ययः, सन् प्रथमः, अन्ये एकादश प्रत्ययाः सन्ति, तेषु मया सन् प्रत्ययः कृतः, सन् प्रत्यये कृते चिकीर्ष इति रूपं लब्धम्। अयमपि कश्चन धातुः, किन्तु अयम् आतिदेशिकः, इस् जनरेटेड् धातु। चिकीर्ष इस् आल्सो धातु, क्रि इस् आल्सो धातु, बट् वाट् इस् द डिफरेन्स् बिट्वीन् दीस् टु इस् क्रि इस् औपदेशिक धातु अण्ड् चिकीर्ष इस् आतिदेशिक धातु। इस् जस्ट् एन् एक्साम्पल्। यदि सनादिप्रत्ययाः सुबन्तात् क्रियन्ते तर्हि पुनः धातुरेव भवति। यस्मात् कस्मादपि यदि सनादिप्रत्ययाः क्रियन्ते, प्रातिपदिकादपि भवन्ति, सुबन्तादपि भवन्ति, धातोः अपि भवन्ति, सनादिप्रत्यये योजिते यत् रूपं लभ्यते तत् रूपं पुनः धातुरेव। अर्थात् पुनः धातुस्तरतः एव प्रक्रिया आरम्भणीया। पुनः तिङ्प्रत्ययः कर्तुं शक्यते, अथवा पुनः सनादिप्रत्ययः शक्येत, अथवा पुनः कृत्प्रत्ययः कर्तव्यः। एवं पुनः धातुस्तरतः एव प्रक्रिया आरम्भणीया भवति। अतः सुबन्तात् सनादिप्रत्ययश्चेदपि पुनः धातुरेव, पुनः ततः एव प्रक्रिया आरम्भणीया। प्रकृतिः नाम का? वट् इस् डिफैन् वन्स् अगेन् प्रकृति इति प्रश्नः अस्ति। यस्मात् प्रत्ययः क्रियते सा प्रकृतिः, यस्मात् प्रत्ययः क्रियते सा प्रकृतिः, टु विच् प्रत्यय इस् एडेड्, दट् इस् prakriti. For example, dhatu is a prakriti because some pratyas are added to dhatu. Pratipadika is also prakriti because some pratyas are added to pratipadika. And subanta is also prakriti because some pratyas are added to subanta. To subanta. Therefore, subanta is also prakriti. To which a pratyaya is added, that is prakriti. Therefore, these three are prakritis. Dhatu is a prakriti, pratipadika is a prakriti, subanta is a prakriti, like that. How to distinguish between tingantam and subantam? So tingantam means ending with ting and subantam means ending with sup. So these are two types of pratyayas. Ting is a group of pratyaya and sup is again a group of pratyayas. Ataha tatra yadi sup pratyaya ante santi tada subantam bhavati. Ting pratyaya ante aschet tingantam bhavati. Katham jnatum shakyate, if there is a ting pratyaya, then it is tinganta. So yada vayam agre pashyama, tinganta rupani, subanta rupani, yada, when we study tingantas and subantas, then we get more clarity. So the difference between tinganta and subanta. So if it is ending with, for example, to a simple example, karoti is a tinganta, ramaha is subanta. Karoti, you can find ti, so it's ending with ti, and ti is a ting pratyaya. Therefore, it is tinganta. Ramaha, Balakaha, all these are subantas. What is the meaning of pratipadikam? Pratipadikam is a technical term in Sanskrit grammar. So, by adding kritpratyaya, the form which we get by adding kritpratyaya or tadhita pratyaya, that is called pratipadika. It's a technical term. The form which we get by adding krit and tadhita, etc., that is called pratipadika. So some more definition is there that we will know later on. Generated dhatus also classified as atmanepadi and paraspaipadi. What is the rule for that? Yes, kechana dhatavah atmanepadinah bhavanti. Kechana generated dhatu, sometimes they become atmanepadi, sometimes paraspaipadi, sometimes upayapadi. There are rules for that. That we will know later on. When we study those sanadi pratyayas, then we discuss those rules. Pathati, pathayati, which is aupadeshika and which is atideshika. Pathati itatra, patha iti dhatuhu. Saha aupadeshika dhatuhu. Because you can find the dhatu pat in dhatu patha. In pathayati, pati is the root. So it is generated root. From patha, the pati is generated. So that is Atideshika Dhatu. Aupadeshika Dhatu is which is listed in Dhatu Patha. That is Aupadeshika, Upadishta. Atideshika is generated Dhatu using Sanadi Pratyayas. Karomi, is it Ting Pratyaya? Karomi itatra Ting Pratyaya asti, Tingantam asti. Karomi is Tinganta form because Mi is Ting Pratyaya here. Kriyapada or Tinganta. Karatru pada or subanta. Yeah, generally we can say like this. Kriyapadas are tingantas. I think tinganta always indicates an action or a verb, while the subanta indicates noun, adjective, adverb, etc. I am correct? Tingantam to kriyam vadati. So tinganta always indicates action, this is true. Yeah, subanta generally indicates nouns, adjectives. Yeah, you can say generally it is right. Patam also comes from pat, right? Yes, patam. Patam satyam. Pat dhatuhu ekaheva. Patam ityasya dhatuhu pat ityeva. Is there more clear definition for padam? The definition for padam is subantam tingantam cha padam, sup tingantam padam, ending with sup, ending with ting is pada. So that is the definition given by Panini. Sup tingantam padam, subantam tingantam cha padam. Why dhatu plus krit pratyaya is not kridanta but pratipadikam? Yeah, it is kridanta if because it's ending with kir, it can be called as kridanta, but pratipadikam is a technical term used by Panini. So therefore I wrote pratipadikam. So it can be called as kridanta because it's ending with krit. Krit anta kridanta. Pratipadikam root word. Iti pratipadikam iti is a technical term. Is a technical term, and I will explain what is pratipadika later on. So there are some rules, and Panini himself defined what is pratipadika. So that we will know later on. So this is to get general idea how pratyayas are added in different level. So to know that, I showed this chart. What is different between krit and ting pratyayas? The difference between krit and ting is if yadi krit pratyaya se yojanam kriyate, if krit pratyaya is added, then the form which we get is pratipadika. So it is not the end form. Again, sup pratyaya should be added. But if we add ting pratyaya, then the form which we get, that is tinganta, and that is pada, is the end form. So that we can use in a sentence. Tinganta can be used in sentence, but kridanta cannot be used directly in a sentence. So some supratyaya should be added to use that. So there is a main difference. Astu. Sari. Agare gachhamaha. एवञ्च वाक्यम् उपरिष्टा दृश्यमानं रूपम्. वाक्यं यदा किञ्चित् पुस्तकं पश्यामः अथवा ग्रन्थं पठामः, वाक्यम् आपा उपरिष्टा दृश्यते. पदैः वाक्यानि भवन्ति, पदानि भवन्ति एकस्मिन् वाक्ये. बहूनि पदानि भवितुमर्हन्ति. पदन्नाम किं? सुबन्तं तिङन्तञ्च पदम्. पदैः वाक्यानि क्रियन्ते. पदे किं भवति? प्रकृतिः प्रत्ययः इति अंशद्वयं भवति. पदे प्रकृतिः प्रत्ययः इति अंशद्वयं भवति. प्राधान्येन तिस्रः प्रकृतयः, धातुः, प्रातिपदिकं, सुबन्तम्. एण्ड् सप्तविध प्रत्ययाः, सेवेन् टैप्स् आफ् प्रत्ययास् आर् देर् एण्ड् त्री टैप्स् आफ् प्रकृतिस्, मेन्लि त्री टैप्स् आफ् प्रकृतिस् आर् देर्. And combination of these pratyayas and prakritis generate pada, and those padas are used in a sentence. Iti vakya nirmana krama. This is how sentences are generated in Sanskrit. Vakyam, padam, and padas are generated from prakriti and pratyaya. So ashtadhyayam ashtadhyayaha swarupam kim. एवम् अष्टाध्याय्यां प्राधान्येन कः विषयः निरूपितः इति मया उक्तम्. अष्टाध्याय्यां प्राधान्येन प्रत्यययोजनविचारः अस्ति. हौ टु एड् दीस् सेवेन् टैप्स् आफ् प्रत्यय टु डिफ्रेण्ट् प्रकृतीस्, दट् इस् वाट् इस् मेन्शन्ड् इन् अष्टाध्यायी इन् डीटेल्. सो हौ दोस् एते विषयाः कथम् अष्टाध्याय्यां सन्ति, कस्मिन् कस्मिन् अध्याये किम् अस्ति इति आपातः पश्यामः. अष्टाध्यायी इति नाम्ना एव ज्ञायते. अष्ट अध्यायाः सन्ति, अष्ट अध्यायी, अष्ट अध्यायाः अस्मिन् ग्रन्थे सन्ति, अतः अष्टाध्यायी इति नाम. प्रत्येकम् अध्याये चत्वारः पादाः सन्ति. ईच् अध्याय इस् डिवैडेड् इन् टु फोर् पादास्. So each adhyaya has four padas, totally eight adhyayas, and each adhyaya has four padas. Evam ashtadhyayah samrachanam. Tatra prathame adhyaye, in first adhyaya, ashtadhyayah avagamanartham kashchana samjnaha apekshitah. So some technical terms Panini used in ashtadhyay. For example, वृद्धिः इति पदमस्ति. वृक्षस्य वृद्धिः भवति इति यदि प्रयोगं करोमि अस्माकं मनसि कश्चन अर्थः आयाति, वृक्षस्य वर्धनं भवति इत्यर्थः. किन्तु वृद्धिः इति पदस्य सः अर्थः व्याकरणशास्त्रे नास्ति. So, vriddhi, the word vriddhi doesn't mean vardhana, but it has a different meaning in Vyakarana Shastra. So, this is a technical term in Sanskrit grammar. Vriddhi is a technical term. Like that, he defined many technical terms. So, tadrsha samjna padana, ashtadhyayaha avagamanartham, yani samjna padani apekshitani, tesham vivaranam prathame adhyaye pradhanyena asti. पुनः वाक्यसम्बद्ध विषयः, मया उक्तं वाक्यं पदं देन् प्रकृत्यन् प्रत्यय, सो वाक्यसम्बद्धविषयः अपि प्रथमे अध्याये एव सन्ति. द्वितीय अध्याये पदसम्बद्धविषयः प्राधान्येन सन्ति. पदसम्बद्ध कथं पदयोः योजनं कर्तव्यं, राजपुरुषः राजपुरुषः इत्यत्र किम् अस्ति, राज्ञः पुरुषः राजपुरुषः, राज्ञः इत्येकं पदं पुरुषः इत्येकं पदम्, अनयोः योजनं कृतं राजपुरुषः इति रूपं सिद्धं, इट्स् अ कम्पौण्ड् वर्ड्. कथम् एतादृशपदानि निर्मातव्यानि तद्विषये प्राधान्येन द्वितीये अध्याये निरूपितम्. प्रकृतिः त्रिविधा इत्युक्तं, धातुः प्रातिपदिकं सुबन्तं, प्राधान्येन तिस्रः प्रकृतयः इति. तत्र धातोः विधीयमानः प्रत्ययः, द प्रत्ययस् विच् आर् एडेड् टु अ धातु, ते प्रत्ययाः तृतीये अध्याये उक्ताः. दे आर् लिस्टेड् एण्ड् देर् मीनिङ्ग्स् एव्रिथिङ्ग् इस् देर् इन् तृतीय अध्याय. द प्रत्ययस् विच् आर् एडेड् टु धातु, दे आर् लिस्टेड् इन् थर्ड् चाप्टर्, थर्ड् अध्याय आफ् अष्टाध्यायी. एते तृतीये अध्याये सन्ति. प्रातिपदिकं सुबन्तम् अपि प्रकृतिः इत्युक्तम्. प्रातिपदिकात् सुबन्तात् विधीयमानाः प्रत्ययाः चतुर्थे अध्याये वर्तन्ते, दे आर् इन् फोर्थ् अध्याय आफ् अष्टाध्यायी. सुबन्तात् विधीयमानाः प्रत्ययाः पञ्चमे अध्याये अपि सन्ति, एण्ड् द प्रत्ययस् विच् आर् एडेड् टु सुबन्त, दे आर् आल्सो इन् पञ्चमाध्याय. सो तृतीयाध्याय, चतुर्थाध्याय, पञ्चमाध्याय, त्रिषु अध्यायेषु प्रत्ययानामेव निरूपणमस्ति. इन् आल् दीस् अध्यायास् पाणिनि मेन्शन् द प्रत्ययास् विच् आर् एडेड् टु डिफ्रेण्ट् प्रकृतीस्, तृतीय चतुर्थ अण्ड् पञ्चमाध्याय. सो आल् द प्रत्ययास् विच् ऐ मेन्शन्, सेवेन् टैप्स् आफ् प्रत्ययास्, आल् दोस् प्रत्ययास् एण्ड् देर् मीनिङ्ग्स् एव्रिथिङ्ग् इस् मेन्शन्ड् इन् दीस् त्री चाप्टर्स् आफ् अष्टाध्यायी. देन् प्रकृतेः प्रत्ययः योजनीयः, दीस् प्रत्ययस् टु बि एडेड् टु प्रकृति. सो हौ टु एड्, वाट् आर् द चेञ्जस् दे आर् गोयिङ्ग् टु हेपन्, दोस् आर् टोल्ड् इन् द रिमैनिङ्ग् चाप्टर्स्, रिमैनिङ्ग् अध्यायास्. विशेषेण षष्ठे अध्याये सन्धिविषये अस्ति, स्वरसन्धिः, देव आलय देवालय अत्र कश्चन सन्धिरस्ति, एतादृशसन्धयः स्वरसन्धयः षष्ठे अध्याये सन्ति. स्वरविषये तत्र वेदे स्वराः सन्ति, उदात्तः अनुदात्तः, स्वरः स्वरः नाम तत्र उदात्तादयः, उदात्त अनुदात्त स्वरित इत्यादि. कदा उदात्तस्वरः भवति, कदा अनुदात्तस्वरः भवति इत्यादिविषये विशेषेण षष्ठे अध्याये एव उक्तम्. अङ्गकार्यम् इत्युक्तं मया, अङ्गम् इति अगेन्स् अ टेक्निकल् टर्म्. सो वेन् प्रत्यय फालोस् then the prakriti is called anga. When a pratyaya follows, then the previous part is called anga. So anga karyam, so angasya krite yani karyani bhavanti, the changes which take place in anga, that is anga karya. Yada prakritehe kashchana pratyaya vidhiyate tada kanichana parivartanani bhavanti, tatsarvam anga karyam iti kathyate. Udaharanartham, कृ इति धातुः, य इति प्रत्ययः, कार्यम् इति रूपं सिद्ध्यति. कृ धातोः य प्रत्यये, य इति कश्चन कृत् प्रत्ययः, बै एडिङ्ग् य प्रत्यय इट् बिकम्स् कार्य. So the crew changed to car. Crew iti asit, but it became car. So this change is anga karya. Crew is anga. So the change which took place, it is anga karya. So etarshani karyani. Kani parivartanani bhavandi iti shashtaya adhyaye uktam. Saptame adhyaye api asti. Shashta adhyaye arabhyate. Saptame adhyaye api asti. Shashte saptame adhyaye. సప్తమే అధ్యాయ సంపూర్ణతయ అంగకార్యమస్తి షష్ఠే అధ్యాయ స్వర విషయ అపి అస్తి స్వర సంధి విషయే అపి నిరూపణం షష్ఠే అధ్యాయ అస్తి సప్తమే అధ్యాయే అపి విశేషేణ వ్యంజన సంధి వ్యంజన సంధి సంధే విసర్గ సంధే చ నిరూపణం విశేషేణ అష్టమే అధ్యాయే దృశ్యతే ఏవం అష్టాధ్యాయ్యాం విషయ నిరూపిత వర్తతే ప్రథమే అధ్యాయే వాక్య సంబద్ధ విషయా ద్వితీయే అధ్యాయే పద సంబద్ధ విషయా ఇన్ థర్డ్ ఫోర్త్ అండ్ ఫిఫ్త్ చాప్టర్ అధ్యాయస్ ఆల్ ప్రత్యయాస్ ఆర్ మెన్షన్ సప్తవిధ ప్రత్యయాః అపి అత్రేవ సంతి షష్ఠే అధ్యాయే సంధిః స్వరః అంగకార్యం ఇత్యాదయః షష్ఠే అధ్యాయే సంతి సప్తమే అధ్యాయే అపి అంగకార్య విషయే ఉక్తమస్తి అష్టమే అధ్యాయే వ్యంజన సంధిః విసర్గ సంధిః ఇత్యాదిః ప్రాధాన్యేన అష్టమే అధ్యాయే అస్తి ఇత్యేవం అష్టాధ్యాయ్యాః స్వరూపం సో ఏవంచ అయమేవ అష్టాధ్యాయ్యాః విషయ సో వాట్ ఇస్ దేర్ ఇన్ అష్టాధ్యాయి మీన్స్ దిస్ ఇస్ దేర్ సో దీస్ సెవెన్ టైప్స్ ఆఫ్ ప్రత్యయాస్ ఆర్ దేర్ అండ్ మెయిన్లీ త్రీ టైప్స్ ఆఫ్ ప్రకృతిస్ ఆర్ దేర్ And Pani listed out all those pratyayas and their meanings and how to add these pratyayas to prakritis. That was that he mentioned in detail, that is angakarya, and how to construct padas with that and how to form compound word padas and how to make sentences, which vibhakti should be used, when which vibhakti should be used, when prathama, when dvitiya vibhakti. So all those rules, those are vakya related rules. So these are there in Ashtadhyayi. Astu. Prashnaha kopi astiva. अस्तु अग्रे गच्छामः एवञ्च एतावत्पर्यन्तं मया यदुक्तं तत् पीठिका एव सो इट् इस् अ प्रिफिक्स् इतः परं यत् पाठ्यते तस्य कृते पीठिका अस्ति एवञ्च आपाततः किम् अस्ति अष्टाध्याय्यां किमस्ति किं विवक्षितमस्ति पाणिनिना किम् अत्र क्रियते इति तत्र दृष्टिः भवतु इति धिया अयं विषयः उक्तः अगेन् वि विल् स्टडी आल् दिस् इन् डिटेल् लेटर् आन् सो केवलं तत्र आपाततः अस्य अवगमनार्थं स्वरूप किं क्रियमाणमस्ति अस्माभिः इति ज्ञातुम् अयं विषयः एतावत्पर्यन्तं निरूपितः इतः परम् अहं क्रमशः विषयस्य निरूपणं करोमि प्रथमं व्याकरणशास्त्रस्य अध्ययनं कुर्वन्तः स्मः व्याकरणं नाम किं किं नाम व्याकरणम् इति चेत् येन शास्त्रेण साधवः शब्दाः ज्ञाप्यन्ते तत् शास्त्रं व्याकरणम् येन शास्त्रेण साधवः शब्दाः ज्ञाप्यन्ते सो द शास्त्र बै वीच् साधुशब्दास् आर् रिमैण्डेड् दट् शास्त्र इस् काल्ड् व्याकरण सो సాధవః శబ్దాః జ్ఞాప్యంతే నతు క్రియంతే వ్యాకరణేన తత్ర శబ్దానాం నిర్మాణం న క్రియతే నిర్మాణం మీన్స్ వ్యాకరణేన ఉక్తత్వా శబ్దానాం నిర్మాణం న భవతి శబ్దాః సంతి సర్వేపి శబ్దాః సంతేవ కింతు తేషు శబ్దేషు కః శబ్దః సమీచీనః కః శబ్దః సమీచీనః న ఇతి జ్ఞాపనమేవ వ్యాకరణశాస్త్రేణ క్రియతే అత వ్యాకరణశాస్త్రస్య లక్ష్యం శబ్దేషు కా శబ్దః సమీచీనః कः शब्दः प्रयोक्तुं योग्यः, कः शब्दः प्रयोक्तुं योग्यः न इति प्रदर्शनमेव व्याकरणशास्त्रस्य लक्ष्यम्। तदर्थं प्रकृतिः, प्रत्ययः इत्यादि विषयाः निरूपिताः। सो जस्ट् टु एक्स्प्लेन् विच् वर्ड् इस् रैट् एण्ड् विच् वर्ड् इस् राङ्ग् टु एक्स्प्लेन् देट् व्याकरणशास्त्र इस् देर्। सो साधवः शब्दाः ज्ञाप्यन्ते येन, तत् शास्त्रं व्याकरणशास्त्रम्। आदौ व्याकरणशास्त्रस्य परम्परा का इति विषये किञ्चित् जानीमः। पाणिनेः प्राक् अपि बहवः वैयाकरणाः आसन्, देर् वर् मेनि ग्रमेरियन्स् बिफोर् पाणिनि आल्सो। पाणिनेः अष्टाध्याय्यामेव बहूनां वैयाकरणानाम् उल्लेखः अस्ति। तर्हि पाणिनेः किं वैशिष्ट्यम् इति चेत्, पाणिनिः सर्वेषामपि अभिप्रायं सङ्गृह्य वैदिकानां शब्दानां, लौकिकानां शब्दानां च कृते व्याकरणम् अलिखत्। सो हि एक्स्प्लेन् आल् वैदिक एण्ड् लौकिक शब्दास्। सो देट् इस् द यूनिक्नेस् एण्ड् इन् अ सिम्पल् वे देट् इस् द यूनिक्नेस् आफ् पाणिनि। सो देर् वर् मेनि ग्रमेरियन्स् बिफोर् पाणिनि आल्सो। सो वाट् हि डिड्, हि एक्स्प्लेन् आल् वैदिक शब्दास् एण्ड् लौकिक शब्दास् इन् अ सिम्पल् वे। देर्फोर् पाणिनेः नाम प्रसिद्धमभवत्। अष्टाध्याय्याः उपरि कात्यायनेन वार्तिकानि लिखितानि। कात्यायनेन यः ग्रन्थः लिखितः तस्य वार्तिकम् इति नाम। वार्तिके तत्र पाणिनिना यदुक्तं तत्र ये अंशाः योजनीयाः, तादृशाः अंशाः कात्यायनेन योजिताः, तत् वार्तिकम् इति कथ्यते। सूत्राणाम् अष्टाध्याय्यां सूत्राणि वर्तन्ते। सूत्रन्नाम किम् इति वदिष्यामि उत्तरत्र। सूत्राणां व्याख्यानं वार्तिकैः कृतम्। उभयोः अपि विवरणं, सूत्राणां वार्तिकानां च विवरणं पतञ्जलिना कृतं, तदेव महाभाष्यम् इति कथ्यते। हि रोट् कामेण्ट्रि आन् वार्तिकास् एण्ड् सूत्रास् आफ् अष्टाध्यायी। सो दट् इस् काल्ड् महाभाष्य आफ् पतञ्जलि। So it's a commentary on Sutra and Vartika. Idam trayam militva, Ashtadhyayi, Vartikam, Mahabhashyam. Idam trayam militva, adhyatve samskuta vyakaranam iti gathate. Samskuta vyakaranam ityanena sarvesham api grahanam bhavati. Ashtadhyayah, Vartikanam, Mahabhashyasya, sarvasya api grahanam bhavati. So therefore, this vyakarana is called Trimuni Vyakarana. Trimuni. Trimuni sir, Panini, Katyayana and Patanjali. So this is called Trimuni Vyakarana. So Ashtadhyayi, Vartika and Mahabhashya. Itam sarvam militva vyakaranam iti vyavaharah. Mahabhashyasya vyakhyana dvayam prasiddham asti. One is Mahabhashya Pradipa written by Kayatopadhyaya. Another commentary is Mahabhashya Pradipa Udyota written by Nagesha Bhatta. These are two famous commentaries and these two are studied even today. Traditionally, Mahabhashya Pradipa and Mahabhashya Pradipa Udyota. These two are commentaries on Mahabhashya. And there are some granthas which are called Vritti Granthas. Vritti Granthaha nama Ashtadhyayam yani Sutrani Santi. Tesham Vivaranam Saralehi Vakyehi Kritam. Tarasha Granthaha Vritti Granthaha iti Gathyante. So it is a simple commentary on Ashtadhyayi Sutras. Those are called Vritti Granthas. तादृशेषु काशिका अत्यन्तं प्रसिद्धा। तत्र द्वाभ्यां वामनः जयादित्यः, दीस् टु आर् द आथर्स् आफ् काशिका। एण्ड् काशिकायां सूत्राणां वृत्तिः नाम सूत्रस्य विवरणम् अस्ति, प्रत्येकं सूत्रस्य उदाहरणं भवति, एतादृशविचाराः तत्र सरलतया विवरणं काशिकाग्रन्थे दृश्यते। द सिम्पल् एक्स्प्लनेशन् आफ् अष्टाध्यायी सूत्रस् एण्ड् आल्सो आफ् वर्तिकास्। And there are two famous commentaries on Kashika, Nyasa of Jinendra Buddhi and Padamanjari of Haradatta Mishra. And Bhattoli Dikshita also wrote Vritti on Ashtadhyayi Sutras, that is called Shabda Kaustubha. शब्दकौस्तुभः इति अष्टाध्याय्याः उपरि वृत्तिः भट्टोजिदीक्षितस्य अस्ति. इट् इस् नाट् अवेलेबल् फुलि टुडे, बट् अप् टु फोर्त् चाप्टर् ऐ थिङ्क् इट् इस् अवेलेबल् फोर्त् अध्याय. एण्ड् देन् प्रक्रियाग्रन्थाः इति वर्तन्ते. प्रक्रियाग्रन्थाः नाम अष्टाध्याय्यां सूत्राणि तत्र यथा मया उक्तं प्रत्ययाः एकत्र सन्ति, प्रत्ययसम्बद्धविधयः एकत्र सन्ति, सन्धि रूल्स् आर् इन् सम् चाप्टर्, सो देर् इस् अ डिफ्रेण्ट् आर्डर् इन् अष्टाध्यायी. बट् इन् प्रक्रियाग्रन्थास् दोस् रूल्स् आर् रीअरेञ्ज्ड्. इफ् यु ओपन् लघुसिद्धान्तकौमुदी आर् सिद्धान्तकौमुदी, यु विल् सी संज्ञाप्रकरणं, परिभाषाप्रकरणम्, अच्छन्धिप्रकरणं, लैक् देर् आर् मेनि चाप्टर्स्. सो the ashtadhyayi rules are rearranged in these chapters. ashtadhyayi sutrani yatha ashtadhyayam santi tatha prakriya granthesu na bhavanti. prakriya, prakriya nama rupasiddhi. so prakriya means getting forms from how to adding pratyayas to dhatu, adding pratyayas to pratipadika, all these are called prakriya. so prakriya, prakriyartham yatha upayoga bhavati. So, how to get Subanta forms. So, all those rules are in Subanta Prakarana. How to add, how to make Sandhis. So, all those rules are in Sandhi Prakarana. So, in Prakriya Granthas, the rules which are related to Sandhi, they are selected and they are explained in Sandhi Prakarana. So, you don't find Ashtadhyayi order usually in Prakriya Granthas. Tadrisheshu Prasiddha Granthaha Ramachandra Acharyasya Prakriya Kaumudi. तं ग्रन्थमवलम्ब्य एव भट्टोजी दीक्षितेन सिद्धान्तकौमुदी रचिता. भट्टोजिदीक्षितस्य वैयाकरणसिद्धान्तकौमुदी अयमपि प्रक्रियाग्रन्थः एव अस्ति. वैयाकरणसिद्धान्तकौमुदी, सिद्धान्तानां निरूपणम् अत्र कृतम्. कौमुद्याः बहूनि व्याख्यानानि सन्ति. तादृशेषु बालमनोरमा इस् अ कामेण्ट्री आन् सिद्धान्तकौमुदी, आर् फेमस् कामेण्ट्रीस्. तत्त्वबोधिनी आफ् ज्ञानेन्द्र सरस्वती एण्ड् भट्टोजिदीक्षित हिम्सेल्फ् रोट् अ कामेण्ट्री आन् सिद्धान्तकौमुदी, दट् इस् काल्ड् प्रौढमनोरमा. एण्ड् नागेशभट्ट आल्सो रोट् अ कामेण्ट्री, दट् इस् लघुशब्देन्दु शेखर. सो दीस् आर् द फेमस् कामेण्ट्रीस् आन् सिद्धान्तकौमुदी. सिद्धान्तकौमुदी इस् अ प्रक्रिया ग्रन्थ. सो भट्टोजिदीक्षित रोट् a prakriya grantha and also wrote vritti and ashtadhyayi. So he wrote both type of granthas. There is a shabda kaustubha, there is a vritti, means he follows ashtadhyayi order and he comments on each sutra. In siddhanta kaumudi it is a prakriya grantha. He rearranges the order and he explained according to sandhi prakarana. In that way he explained. In lagu siddhanta kaumudi is a condensed form of siddhanta kaumudi, ata sankshipta roopam asti. वरदराजभट्टाचार्येण सः ग्रन्थः लिखितः. नागेशभट्टस्य परिभाषेन्दुशेखरः इति एकः ग्रन्थः अस्ति. अयं प्रक्रियाग्रन्थः नाम प्रक्रिया उपयोगि. सो इट् प्रक्रियायाः अवगमनार्थं देर् आर् सम् परिभाषास्. परिभाषा मीन्स् केचन नियमाः अष्टाध्याय्याः अवगमनार्थं सहकुर्वन्ति. दे हेल्प् इन् अण्डर्स्टाण्डिङ्ग् अष्टाध्यायी. सो सच् niyamas, some rules are called paribhashas. And Nagesha Bhatta collected all those paribhashas and explained in Paribhashendu Shekhara. So there is also a famous grantha. And Arthika Granthaha. Arthika Granthaha nama maya dhatuhu ityuktam. Dhatuhu kaha artha? What is the meaning of dhatu? So, and what is the meaning of, what is the meaning means? धातुः धातुः कम् अर्थं द्योतयति. सो वेदर् इट् इस् डिनोटिङ्ग् क्रिया, सो वाट् डस् इट् डिनोट्, सो सच् डिस्कशन्स् आर् देर्. सो सच् ग्रन्थास् आर् काल्ड् आर्थिकग्रन्थ. सो अर्थस्य विषये विचारः भवति. प्रक्रियाग्रन्थे प्रक्रियाविचारः, कथं रूपाणां सिद्धिः, हौ टु गेट् अ डिफ्रेण्ट् फार्म्, दट् ईस् इन् प्रक्रियाग्रन्थ. In Arthika Grantha, this is a discussion of Artha. What is the meaning of Arthatu? What is the meaning of Pratipadika? So, which which what is the meaning of means pratyaya, which meaning pratyaya gives, whether what is bhava, what is kriya. So such discussions are there. That is, that such discussions you will find in Artya Granthas. Vakyapadiyam Artya Granthasti. Bhattavadikshitasya Vayakarana Siddhanta Karikaha. Kaundabhattasya Vayakarana Siddhanta Bhushana Saraha. Nageshabhattasya Lagumanjusha Paramalagumanjusha. Ete sarvepi Artya Granthaha Santi. Idam Vyakarana Shastrasya Paramparasti. Etat Paryantam. ಏತೆ ಗ್ರಂಥಾ ತತ್ರ ವ್ಯಾಕರಣ ಶಾಸ್ತ್ರೇ ಪ್ರಸಿದ್ಧಾ ವರ್ತಂತೆ. ಸಾಮಾನ್ಯತಃ ಏ ವ್ಯಾಕರಣ ಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನ ಕುರುವಂತಿ, ಸಂಪೂರ್ಣತೆಯ ಏ ವ್ಯಾಕರಣ ಶಾಸ್ತ್ರಸ್ಯ ಅಧ್ಯಯನ ಕುರುವಂತಿ, ತೇ ಪ್ರಾಯಃ ಏತಾನ್ ಗ್ರಂಥಾನ್ ಪಠಂತಿ. ದೇ ಸ್ಟಡಿ ಆಲ್ ದೀಸ್ ಗ್ರಂಥ, ದೋಸ್ ಹೂ ಸ್ಟಡಿ ವ್ಯಾಕರಣ ಶಾಸ್ತ್ರ ಟ್ರೆಡಿಷನಲಿ, ದೇ ಯೂಶುವಲಿ ಸ್ಟಡಿ ಆಲ್ ದೀಸ್ ಗ್ರಂಥಾಸ್. ಇತಿ ವ್ಯಾಕರಣ ಶಾಸ್ತ್ರಸ್ಯ ಪರಂಪರಾ. ಇದಸ್ಯ ಅವಗಮನ ಅಪೇಕ್ಷಿತ, ಕಥಂ ವ್ಯಾಕರಣಶಾಸ್ತ್ರಸ್ಯ ವರ್ಧನಂ ಅಭವತ್ ಇತಿ ಜ್ಞಾನಂ ವ್ಯಾಕರಣಶಾಸ್ತ್ರ ಪ್ರವೇಶಾತ್ ಪ್ರಾಕ್ ಅಸ್ಮಾಕಂ ಭವೇತ್. ಸೊ ಇದಂ ಏತಾದೃಶಾನಿ ಬಹೂನಿ ಕಾರ್ಯಾಣಿ ಅಸ್ಮಿನ್ ಶಾಸ್ತ್ರೇ ಕೃತಾನಿ ಸಂತಿ. ವ್ಯಾಕರಣಾಧ್ಯಯನಸ್ಯ ಕ್ರಮದ್ವಯಮಸ್ತಿ ಭಾರತದೇಶೇ, ಕ್ರಮದ್ವಯಂ ಪಶ್ಯಾಮಃ. ಸೊ ದೇರ್ ಆರ್ ಟೂ ವೇಸ್ ಇನ್ ಸ್ಟಡಿಯಿಂಗ್ ಸಂಸ್ಕೃತ ಗ್ರಾಮರ್. One is Kashika Krama, another is Kaumudi Krama. These two names are used. Kashika Krama means tatra Kashika, Kashika meva avalambya visheshena ashtadhyayaha adhyayanam bhavati. Kashika ashtadhyayi kramena vyakhyanam asti. Kaumudyam tu prakriya kramena vyakhyanam asti. Prayah dakshina bharate in Karnataka etc. we will study in Kaumudi Krama. But in Uttara Bharata you will find ಕಾಶಿಕ ಕ್ರಮ. ಇನ್ ಮೆನಿ ಪ್ಲೇಸಸ್ ದೇ ಸ್ಟಡಿ ಇನ್ ಕಾಶಿಕ ಕ್ರಮ. ಕಾಶಿಕಾಂ ವಿಶೇಷೇಣ ಅವಲಂಬ್ಯ ಅಧ್ಯಯನ ಕುರುವಂತಿ. ಕೌಮುದಿ ಕ್ರಮೇ ಕೌಮುದೀಂ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ಭಟ್ಟೋದೀಕ್ಷಿತಸ್ಯ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ಅವಲಂಬ್ಯ ಅಧ್ಯಯನ ಕುರುವಂತಿ. ಕಾಶಿಕಾಯಾಂ ಪ್ರಾಚೀನ ವೈಯಾಕರಣಾನಾಂ ಆಶಯಃ ಅಪಿ ಯೋಜಿತಃ ಅಸ್ತಿ. ಕಿಂತು ಕೌಮುದಿ ರೀತ್ಯ ತತ್ರ ಬಹುತ್ರ ಭಾಷ್ಯ ವಿರೋಧಃ ಕಾಶಿಕಾಯಾಂ ಅಸ್ತಿ ಇದು ಉಚ್ಯತೆ. So in many places they say this is not according to Bhashya. The Kashika commentary is not according to Bhashya. That is what you will find in Kaumudi. So many places they mention it is not according to Bhashya. So it should be explained like this. So this is what you will find in Kaumudi if you study Kaumudi. But in Kashika, tatra anyesham vyakaranam ashayam api svikritya tatra vyakhyanam drishyate. ಅತಃ ದೇರ್ ಫೋರ್ ಸಮ್ ಟೈಮ್ಸ್ ಯು ಫೈಂಡ್ ಭಾಷ್ಯ ವಿರೋಧ ಇನ್ ಕಾಶಿಕ. ಸೊ ಇನ್ ಕೌಮುದ್ಯ ಭಾಷ್ಯ ವಿರುದ್ಧ ಸರ್ವಂ ಅಪ್ರಾಮಾಣಿಕಂ ಇತಿ ಸ್ವೀಕ್ರಿಯತೆ. ಸೊ ಇಟ್ ಇಸ್ ನಾಟ್ ಅಕಾರ್ಡಿಂಗ್ ಟು ಭಾಷ್ಯ, ದಟ್ ಇಸ್ ನಾಟ್ ಕನ್ಸಿಡರ್ಡ್ ಆಸ್ ಸಿದ್ಧಾಂತ ಇನ್ ಕೌಮುದಿ. ಸೊ ಕಿಂತು ಕ್ರಮದ್ವಯೇನಾಪಿ ಅಧ್ಯಯನ ಅಸ್ತಿ, ಕಾಶಿಕ ಕ್ರಮೇಣಾಪಿ ಅಧ್ಯಯನ ಕುರುವಂತಿ, ಕೌಮುದಿ ಕ್ರಮೇಣಾಪಿ ಅಧ್ಯಯನ ಕುರುವಂತಿ. ಮಯಾ ಯದಾ ವಿಚಾರಾಃ ಉಪಸ್ಥಾಪ್ಯಂತೆ ತದಾ ಕೌಮುದಿ ಕ್ರಮಸ್ಯೇವ ಪ್ರಭಾವಃ ಭವತಿ. ಸೊ ವೆನ್ ಐ explain, when I teach, so mostly I follow Kaumudi Krama. So therefore you may find different explanation in Kashika, but I am following Kaumudi Krama while explaining sutras and all those things. Kintu Kashikaya vaishishtyam nama sarvesham sutranam samagrataya vyakhyanam asti. Ekam sutram svikriyate chet tasya vivaranam sarvesham padanam tatra udaharanam sarvam samyak kashikayam upalabhyate. ಕಿಂತು ಕೌಮುದ್ಯಾಂ ತಥಾ ಸರ್ವೇಷಾಂ ಉದಾಹರಣಂ ನ ಲಭ್ಯತೆ. ತಸ್ಮಿನ್ ಪ್ರಸಂಗೆ ಯೇ ಅಂಶಾಃ ಅಪೇಕ್ಷಿತಾಃ ತಾವಂತಃ ಏವ ಅಂಶಾಃ ನಿರೂಪ್ಯಂತೆ. ಓನ್ಲಿ ದ ಎಕ್ಸಾಂಪಲ್ಸ್ ವಿಚ್ ಇಸ್ ರಿಲೆವೆಂಟ್, ಓನ್ಲಿ ದಟ್ ಈಸ್ ಮೆನ್ಷನ್ಡ್ ಇನ್ ಕೌಮುದಿ. ಬಟ್ ಇನ್ ಕಾಶಿಕ ಯು ವಿಲ್ ಫೈಂಡ್ ಆಲ್ ಪಾಸಿಬಲ್ ಎಕ್ಸಾಂಪಲ್ಸ್ ಟು ಅ ಸೂತ್ರ. ಪಾಸಿಬಲ್ ಮೀನ್ಸ್ ಯು ವಿಲ್ ಫೈಂಡ್ ಎಕ್ಸಾಂಪಲ್ ಫಾರ್ ಈಚ್ ವರ್ಡ್. ಸೊ ಇಫ್ ದೇರ್ ಆರ್ ಮೆನಿ ವರ್ಡ್ಸ್ ಇನ್ ಸೂತ್ರ, ಸೊ ಯು ವಿಲ್ ಫೈಂಡ್ example for each word, but you won't find in Kaumudi such examples. So that is the uniqueness of Kashika. So Kashika krame evam rupena ete granthaha prathanena patanti. In Kashika krama they study astadhyayi and prathamavritti. Some may have heard of prathamavritti and madhaviya sadhuvritti, vedanga prakasha for Dayananda Saraswati, and Kashika, Mahabhashya, అనేన క్రమేణ కాశీగా క్రమే అధ్యయనం భవతి. అద్యాపి భారతదేశే బహుత్ర కాశీగా క్రమేణ అధ్యయనం వ్యాకరణ శాస్త్రస్య ప్రచరతి. కౌముది క్రమే లఘు సిద్ధాంత కౌముది కేచన పఠంతి, కేచన సాక్షాత్ సిద్ధాంత కౌముది మే పఠంతి, దెన్ ప్రౌఢ మనోరమ అండ్ దెర్ ఇస్ కామెంటరీ ఆన్ ప్రౌఢ మనోరమ, దట్ ఈస్ శబ్దరత్న అండ్ లఘు శబ్దేందు శేఖర, మహాభాష్య విత్ ప్రదీప అండ్ ఉద్యోత కామెంటరీ. సో దీస్ గ్రంథస్ ఆర్ మెయిన్లీ స్టడీడ్ అండ్ అదర్ గ్రంథస్ ఆఫ్ నగేశ భట్ట, దీస్ ఆర్ మెయిన్లీ స్టడీడ్ ఇన్ కౌముది క్రమ. సో బట్ దీస్ టూ ఆర్ ప్రివేలింగ్ క్రమాస్ ఇన్ స్టడీ ఆఫ్ అష్టాధ్యాయి. అస్తు, ఇంత కోపి ప్రశ్న అస్తి వా అన్యథా అగ్రిమ పాఠే వర్ణానాం విషయే నిరూపయిష్యామి. ఎతావత అష్టాధ్యాయాం కిమస్తి ఇతి ఆపాతతః ఉక్తం. వ్యాకరణ శాస్త్రస్య పరంపరా కా అస్తి, అద్యత్వే భారతదేశే కథం కేన క్రమేణ వ్యాకరణ శాస్త్రస్య అధ్యయనం ప్రచలతి. క్రమద్వయేన అధ్యయనం అస్తి, కౌముది క్రమేణాపి అధ్యయనం భవతి, కాశీగా క్రమేణాపి అధ్యయనం భవతి, కదాచిత్ విరోధః అపి దృశ్యతే. కౌముద్యాం కాశికాయా ముక్తస్య ఖండనం ఇత్యాదికమపి అస్తి. అతః యదా భవంతః కౌముదీం పఠంతి తదా తత్ర విరోధః అపి దృశ్యతే, కింతు క్రమద్వయేనాపి అధ్యయనం అద్యత్వే భారతదేశ అస్తి. ఇది కోపి ప్రశ్నః అస్తి చేత్ భవితుమర్హతి. ఓకే, భాష్య దేర్ ఆర్ సమ్ క్వశ్చన్స్.
మాధవ్య హస్తానున్నీతవంతః తాన్ ప్రష్టుం అర్హసి, యతోహి బహు బహు కాలాత్ కేచన ప్రతీక్షంతి.
సవితాజీ ప్రశ్న అస్తి వా? హలో, అష్టపదం ఇది ప్రసిద్ధం తు నాస్తి వ్యాకరణశాస్త్రే, దిస్ నాట్ అ ఫేమస్ వర్డ్ ఇన్ వ్యాకరణశాస్త్ర. అష్టపద అష్టాధ్యాయి ఇస్ ద నేమ్ ఆఫ్ గ్రంథ అండ్ ఇస్ అష్టాధ్యాయ బికాస్ దేర్ ఆర్ 8 చాప్టర్స్, దెర్ఫోర్ ఇస్ అష్టాధ్యాయి. అధ్యాయ అష్టాధ్యాయ.
బట్ వి వెన్ వి గెట్ ఇన్ ఆయుర్వేద శాస్త్ర దేర్ అష్టాధ్యాయ అష్టపద ఇస్ కన్సిడర్డ్ యాస్ వన్ ఆఫ్ ది ఆస్పీషియస్ అథాతో దీర్ఘం జీవితం అధ్యాయం వ్యాఖ్యాస్యామః. దేర్ దే హావ్ బీన్ టోల్డ్ ఇట్ యాస్ అష్టపద ఇస్ కన్సిడర్డ్ యాస్ one of the auspicious, so for every chapter they have made have taken it 8 like that they have told it.
Okay. Oh, the reason behind making 8 chapters. Okay, so that is auspicious. Okay, it might be, but it is not mentioned anywhere in here in Vyakaran tradition. It is not mentioned. There is Ashtapada is auspicious, therefore they made Ashtadhyaya. It is not mentioned here, but it might be auspicious.
Okay, thank you.
Girija ji? Girija ji, prashna asti va? శ్రూయతే. దరహరిజి ప్రశ్న అస్తి వా?
ఐ డోంట్ హావ్ ఎనీ రైట్ నౌ. దిస్ ఇస్ మై ఫస్ట్ లెసన్. ఐ మిస్ ది లాస్ట్ వన్. ఐ వాంట్ టు గెట్ హోల్డ్ ఆఫ్ ది టెక్స్ట్. ఐఎమ్ ఇన్ యూఎస్, సో ఐ వుడ్ లైక్ టు టాక్ సే హౌ టు గెట్ ఇట్.
Okay, okay. Astra, astra.
I had a question earlier, and okay. That was only with Tiganta and Subanta. Tiganta, you can add the pratyaya to dhatu. For subanta, you must add it to pratipadika.
Yes, right? Yes. Yes,
okay,
right.
That was yes. Okay.
Yes. So you will know later on. So because I am doing this in detail, so you will get more clarity in later classes.
Yeah. Now that was clear from the diagram. So they would look like,
Venkateshwaranji, prashna astiva? Okay. PM iti asti, nama na janami. Yes, prashna astiva?
Hello, namaste. So the question is, I see from Pratipadikam, supratyaya and you get subantam. And with three pratyaya, you get another pratipadikam, right? From the diagram, it looks like from pratipadikam with pratyaya, you get pullinga, like karta. With three pratyaya, you get kartvi, which is trilinga. What fetches the pumsakalinga? How to get the pumsakalinga?
Okay, because I gave example of pullinga, therefore the confusion may arise. Actually, napumsakalinga is also like that. So, pratipadika, if we add supratyaya, then it becomes napumsaka. So, the pratyaya is slightly different. In supratyayas only, there are different variations are there. So, so that is that makes the difference in napumsakalinga and pullinga. So, it is directly pratipadika plus supratyaya, then we get napumsakalinga rupa.
Okay, thank you.
अन्यः कोऽपि अस्तु प्रश्नः अत्र लिखिताः प्रश्नाः बहवः सन्ति प्रायः वाट् इस् द इम्पार्टेन्स् आफ् पतञ्जलिस् महाभाष्य सो पतञ्जलेः महाभाष्ये He commented on all sutras and vartikas in a very extensive way. So we get more clarity. So what does the sutra mean? What is the meaning of sutra? What is the meaning of this vartika? So we get more clarity with Mahabhashya. Mahabhashya na sammyak parijnanam bhavati. So he gives many examples. So atah atra Mahabhashya na bahu vistarena vyakhyama. Sutram tu bahu laghu. So sutras are very small. So without explanation, we can't understand those sutras. So in Mahabhashya, the explanation is given. So we can understand the sutras very clearly. That is the importance of Mahabhashya. Normally, with all texts are required for a learner to get a comprehensive idea of Sanskrit. Sanskritasya adhyayanam dvitham bhavitumarhati. So you can study Sanskrit if you want to just want to speak Sanskrit, then there is a method. So if you want just to understand, so then the method will be different. So if you want to learn Sanskrit grammar, then the method will be different. Here what I am doing is I am teaching grammar. So Sanskrit vyakaranasya avagamanam katham. Sanskrit vyakarana means that is ashtadhyayi. So how to understand ashtadhyayi, so how to study ashtadhyayi on your own. So the method I am teaching here. So Sanskrit study can be in the both way. If you want to just to understand Sanskrit, then it can be different. So no need to learn grammar like this completely. But if you want to learn grammar itself, so if you want to create something, if you want to use Sanskrit sentences or if you want to create shlokas, then you may need grammar knowledge of grammar clearly. If you want to understand the text very clearly with the help of grammar, then we may need Sanskrit grammar. Ataha yadi Sanskrita vyakaranasya adhyayanam kartum ishtati tada ashtadhyayi ityadikam tatra upayogaya bhavati. Kintu tatra bahuvidha granthaha santi praya ashtadhyayi ityadi granthaha tatra reference krite upayoktum shakyante. You can use ashtadhyayi and so you will get kashika. So you can use those books for references. I could each chapter is split into four on the basis. Okay. ప్లీజ్ క్రియేట్ వాట్సాప్ గ్రూప్ ఫర్ దిస్ అస్తు అపోవత్ అన్ని ప్రతి కిమర్థం చత్వారః పాదాః పాదే పాద విభాగే కోపి విశేష అస్తి వా ఇతి దేర్ ఆర్ ఫోర్ పాదస్ అండ్ సో దిస్ ఇస్ ద మెథడ్ హీ ఫాలోడ్ అధ్యాయ అండ్ ఈచ్ అధ్యాయ హ్యాస్ ఫోర్ పాదస్ అండ్ సమ్ టైమ్స్ ద సబ్జెక్ట్ మ్యాటర్ డిఫరెన్స్ ఇన్ ఈచ్ పాద సో వెన్ వి స్టడీ ద అటాడ్ ఇన్ డీటెయిల్ దెన్ యూ విల్ నో హౌ వాట్ ఈస్ ద ఇంపార్టెన్స్ ఆఫ్ దిస్ పాదస్ అండ్ అధ్యాయ అస్తు తర్హి సమాపయామః ఇతి భాతి Okay, again. Is there any explanation as to why certain pratyayas are called krit and certain other pratyayas are called tadhita? Or, yes, there is an explanation that I will, when we study krit and tadhita, then I will explain. There is why krit, there is a name is krit, why it is called tadhita. That I will explain in the next coming classes. So then we will know about that. పుస్తకస్య విషయ ప్రశ్న అస్తి సో దోస్ హూ నీడ్ ద బుక్ సో టుడే వి విల్ సెండ్ అనౌన్స్మెంట్ సో ఇట్ విల్ బి ఇన్ వ్యూ మై వెబ్సైట్ సో దేర్ యూ విల్ ఫైండ్ ఎవరీ డీటెయిల్ సో హూమ్ యూ హ్యావ్ టు కాంటాక్ట్ అండ్ ఎవ్రీథింగ్ విల్ బి దేర్ ఇన్ ద వెబ్సైట్ సో ఇన్ అనౌన్స్మెంట్ సెక్షన్ సో ఫ్రమ్ యూజింగ్ దాట్ యూ కెన్ పర్చేస్ ద బుక్ సో దిస్ ఇస్ ఫర్ బిగినర్స్ ఓన్లీ So what I am teaching is for beginners only. From beginning I am teaching. So from Astadhyayi Parampara, what are the letters and how to understand Astadhyayi. Okay. Astu. For sixth. Astu Tari. Samapayamaha. అస్సు మంగళం కరోమి వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం